अथ षष्ठोऽध्याय इक्ष्वाकु के वंश का वर्णन मानधाता और सौभरी ऋषि की कथा। श्री शुक उवाच विरूप केतुमान शंभुरंबरीश सुतास्त्रय विरूपात् पृषदस्व भूत तत्पुत्रस्तु रथितर रथितर प्रजस्य भार्यायां तन्तवेत्थितः अंगिरा जनयामास ब्रह्म वर्चस्विनः सुतान् एते क्षेत्रे प्रसूता वै पुनस्त्वांगिरसा स्मृतः रथितराणां प्रवराः छत्रोपेता द्विजातयः सुतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः तस्य पुत्रशतः ज्येष्ठा विकुक्षी निमिदण्डकः तेषां पुरस्तादभवन् अर्जावर्ते नृप पञ्चविंशति पश्चाच्च त्रयो मध्ये परेण्यतः स एकदाष्टका श्राद्धे इक्ष्वाकुः सुतमादिशत् मांसमानीयतां मेध्यं विकुक्षे गच्छमाचिरम् तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् शान्तो बुभुक्षितो वीरः ससञ्चादपस्मृतिः शेषं निवेदयामास पित्रे तेन च तद्गुरुः चोदितः प्रोक्षणायाः दुष्टमेतदकर्मकम् ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितः नृपः देशान्निशारयामास सुतं त्यक्तविधि मृषा स तु विप्रेण संवादं जापकेन समाचरन् त्यक्त्वा कलेवरं योगी सत्येनावाप यत्परम् पितर्युप्रते भेत्य विकुक्षिः पृथ्वीं यात् शासदीजे हरिं यज्ञे शशाद इति विश्रुतः पुरञ्जयस्तस्य सुत इन्द्रवाह इति रितः ककुत्स्थ इति चाप्युक्त शृणु नामानि कर्मभिः कृतांत आसित समरे देवानां सह दानवैः पार्षिणि ग्राहो भृतो वीरो दैत्यपराजितैः वचनाद्देवदेवस्य विष्णुर्विश्वात्मनः प्रभो वाहनत्वे वृतस्तस्य बभुवेन्द्रो महावृषः स सन्नद्धो धनुर्दिव्यम् आदाय विशिखांसितान् स्तूयमानः समारुह्य युयुत्सुः ककुदिस्थितः तेजसाप्यायितो विष्णुः पुरुषस्य परात्मनः प्रतीक्ष्यां दिशि दैत्यानां न्यरुणद्धि दशैः पुरम् तैस्तस्य चाभूत्प्रधनम् तुम्लम् लोमहर्षणम् यमाय भल्लैरनय दैत्यान् तेऽभियुर्मृधे तस्येषु पाताभिमुखम् जुगान्ताग्निमिवल्बणम् विसृज्य दुद्रूर्दैत्या हन्यमानः स्वमालयम् जित्वा पुरम् धनम् सर्वम् सस्त्रीकम् वज्रपाणये प्रत्यच्छत् स राजर्षिरिति नामभिराहृतः पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथु विश्वरन्धिस्ततश्चन्द्रो जुवनाश्वश्च तत्सुतः सावस्तस्तत्सुतो येन सावस्ति निर्ममे पुरी बृहदस्वस्तु सावस्ति ततः कुलयाश्वकः यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरम् बलि सुतानामेकविंशत्या सहस्रैरहनद्वृतः धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः धुन्धुर्मुखाग्निना सर्वे त्रय एवावशेषितः दृढास्वः कपिलास्वश्च भद्रास्व इति भारत दृढास्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत स्मृतः वरहरासो निकुम्भस्य कृशासोत्थास्य सेनजित् जुवनासो भवत्तस्य सोनपत्यो वनम् गतः भार्याशतेन निर्वीण ऋषिवस्य कृपालव इष्टिम् स्म वर्तयाम् चक्रुरैन्द्रीम् ते सुसमाहितः राजा तज्जज्ञसदनम् प्रविष्टो निशितर्षितः दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलम् स्वयम् उत्थितास्ते निशाम्याथ व्युदकम् कलशम् प्रभो पप्रक्षु कस्य कर्मेदम् पीतम् पुंसवनम् जलम् राज्ञा पीतम् विदित्वाथ ईश्वर प्रहितेन ते ईश्वराय नमश्चक्रुरहो दैवबलम् बलम् ततः कालोपावृत्ते कुक्षिम् निर्भिद्य दक्षिणम् जुवनाश्वस्य तनयश्चक्रवर्ती जजानः कम् धास्यति कुमारोऽयम् स्तन्यम् रोरुयते भृशम् माम् धाता वत्समारोधीरितीन्द्रो देशिनी मदात् न मुमार पिता तस्य विप्रदेव प्रसादतः जुवनाशोऽथ तत्रैव तपसा सिद्धिमन्वगात् त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम तस्य वै जस्मात्सन्ति युद्धघ्ना दस्यौ रावणादयः यौवनाशोऽथ मान्धाता चक्रवर्त्यवनीम् प्रभु सप्तद्वीपवतीमेकः सशासा चित्तेजसा ईजे च यज्ञम् कृतभिरात्मविद् भूरि दक्षिणैः सर्वदेवमयम् देवम् सर्वात्मकम् अतीन्द्रियम् द्रव्यम् मन्त्रो विधिर्यज्ञो यजमानस्तथार्थितः धर्मो देशस्य कालश्च सर्वमेतद्यदात्मकम् यावत् सूर्य उदेति स्म यावच्च प्रतिष्ठति सर्वम् तज्जौवना स्वस्य मन्धातुः क्षेत्रमुच्यते शशबिन्दुर्दुहितरि बिन्दुमत्यामधा नृपः पुरुकुत्सम् अम्बरीशम् मुचुकुन्दम् च योगिनम् तेषाम् स्वसारः पञ्चाशत् सौभरीम् बभ्रुवे पतिम् यमुनान्तर्जले मग्नस्तप्यमानः परम् तपः निर्वृतिम् मीनराजस्य वीक्ष्य मैथुनधर्मिणः जातस्पृहो नृपम् विप्रः कन्यामेकामयाचत स्वप्याः गृह्यताम् ब्रह्मन् कामम् कन्या स्वयंवरे स विचिन्त्या प्रियम् स्त्रीणाम् जरठो अयम् सम्मतः बलिपलित एजत्क इत्यहम् प्रत्युदाहृतः साधयिष्ये तथात्मानम् सुरस्त्रीणामपीप्सितम् किम् पुनर्मनुजेन्द्राणाम् इति व्यवसितः प्रभु मुनिः प्रवेशितः क्षत्रा कन्यान्तः पुरमृद्धिमत् वृतश्च राजकन्याभिरेकः पञ्चाशतावरः तासाम् कलिरभूद्भूयांश्च तदर्थे पह्य सहृदम् ममानरूपो नायम् व इति तद्गत चेतसाम् स बहुरिचस्ताभिरपारणीय तपः श्रिया नर्घ्यपरिच्छदेषु गृहेषु नानोपवनामलाम्भ सरस्व सौगन्धिक काननेषु महार्ह सज्जासन वस्त्रभूषण स्नानानुलेपाभ्यवहार माल्यकैः स्वलङ्कृत स्त्री पुरुषेषु नित्यदारे मेनुगायद् द्विजभृङ्गबन्दिषु जद्गार्हस्त्यम् तु संवीक्ष्य सप्तद्वीपवतीपतिः विस्मितः स्तम्भमजहात् सार्वभौम श्रियान्वितम् एवम् गृहेष्वभिरतो विषयान् विविधैः सुखैः सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः स कदाचिदुपासीन आत्मापहनवमात्मनः ददर्श बहुरिचाचार्यो मीनसङ्गसमुत्थितम् अहो इमम् पश्यति मे विनाशम् तपस्विनः सच्चरितव्रतस्य अन्तर्जले वारिचर प्रसङ्गात् प्रच्यावितम् ब्रह्मचिरम् धृतम् यत् सङ्गम् त्यजेत मिथुन व्रतिना मुमुक्षुः सर्वात्मनान् विसृजेत् बहिरिन्द्रियाणि एकश्चरन् रहसि चित्तमनन्तैषे युञ्जीत तद्व्रतिषि साधु सुचेत् प्रसङ्गः एकस्तपस्वीयहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः नान्तम् व्रजामुभयकृत्यमनोरथानाम् मायागुणैर्हृतमतिर्विषयेऽर्थभावः एवम् वसन् गृहे कालम् विरक्तो न्यासमास्थितः वनम् जगामान अनुययुः तत्पत्न्यः पतिदेवतः तत्र तप्त्वा तपस्तीक्ष्णम् आत्मकर्षणमात्मवान् सहैवाग्निभिरात्मानम् जुयोज परमात्मनि ताः स्वपत्युर्महाराज निरीक्षाध्यात्मिकीम् गतिम् अन्वीयुस्तत्प्रभावेण अग्निम् शान्तमिवार्चिषः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः।